अथ वार्ताः। जम्मूकश्मीरे विधानसभा निर्वाचनस्य प्रथमचरणस्य कृते मतदानम् अद्य किञ्चित् कालानन्तरम् एव आरप्स्यते। सप्तमण्डलानां चतुर्विंशति निर्वाचनक्षेत्राणि अद्य नैर्वाचनिक समराङ्गणे सन्ति। नवति निर्दलैः सह ऊनविंशत्यधिक द्विशतम् अभ्यर्थिनां भाग्यस्य निर्णयं 23 लक्षाधिकाः मतदातारः करिष्यन्ति। निर्वाचनाय विस्तृता सुरक्षाव्यवस्था कृता सन्ति। द्वितीयचरणस्य मतदानम् अस्मिन् मासे 25 दिनांके भविष्यति। तृतीयचरणस्य मतदानं च अक्टूबर मासस्य प्रथमे दिने भविष्यति। मतगणना अक्टूबर मासस्य 8 दिनांके भविष्यति। राष्ट्रपति पदासीना द्रौपदी मुर्मू अद्य जयपुरस्य एकदिवसीय यात्रायां भविष्यति। सा मालवीय राष्ट्रिय प्रौद्योगिकी संस्थायाः MNIT इत्यस्य जयपुरस्य दीक्षांत समारोहे मुख्यातिथिरूपेण भागं गृह्णाति। दीक्षांत सम्बोधनं च करिष्यति। राष्ट्रपतेः छात्राणां कृते 600 शय्यायुतस्य नूतनस्य अरावली छात्रावासस्य उद्घाटनम् अपि करिष्यति। कार्यक्रमे राजस्थानस्य राज्यपालः हरिभाऊ किशनराव वागडे, मुख्यमंत्री भजनलाल शर्मा च भविष्यतः। हरियाणायाम् अक्टूबर मासस्य 5 दिनांके भवितुं निश्चितस्य विधानसभा निर्वाचनस्य कृते प्रायः 31,000+ यावत् अभ्यर्थिनः नैर्वाचनिक समराङ्गणे सन्ति। हरियाणा मुख्य निर्वाचन पदाधिकारी पंकज अग्रवालः ह्यः सूचितवान् यत् तेषु 30,900 पुरुषाः, 1,100 महिलाः अभ्यर्थिनः च सन्ति। सः अवदत् यत् तेषु 260,400 अभ्यर्थिनः निर्दलीयरूपेण प्रतिस्पर्धां कुर्वन्ति। एतेषु 21,100 पुरुषाः, 140 महिला अभ्यर्थिनः च सन्ति। इजरायलस्य प्रधानमन्त्री बेंजामिन नेतन्याहू, रक्षामन्त्री योआव गैलेंटः च लेबनान घातक पेजर विस्फोटे तल अवीव नगरस्य हाक्रिया सैन्यकेन्द्रे सुरक्षामूल्यांकन सभां कृतवन्तौ। अपरपक्षे हिजबुल संघेन उक्तं यत् एतेषां विस्फोटानां कारणानि चिन्तयितुं सुरक्षा वैज्ञानिक अनुसन्धानं कुर्वन्नस्ति। अन्यस्मिन् वक्तव्ये समूहेन उक्तं यत् इजराइल देशेन कृतः इति आरोपितं प्रतिकारस्य प्रतिज्ञापि कृता। इजराइल देशः एतेषां घटनानां उत्तरदायित्वं न स्वीकृतवान्। लेबनान देशस्य स्वास्थ्यमन्त्रालयेन उक्तं यत् ह्यः जाते पेजर विस्फोटे न्यूनातिन्यूनम् 8 जनाः मृताः। हिजबुल सदस्यैः सह 28,000+ जनाः व्रणिताः। प्रधानमन्त्री नरेन्द्रमोदी ह्यः ओडिशा सर्वकारस्य महिला केन्द्रितं पदक्षेपं सुभद्रा योजनया साकं भुवनेश्वर मध्ये रेलपट्टिकायाः राष्ट्रिय राजमार्ग परियोजनायाः च शुभारम्भं कृतवान्। तत्र हि बीजू पटनायक अन्ताराष्ट्रिय विमानपत्तने प्रधानमन्त्रिणः मोदिनः शुभागमने तस्य भव्यं स्वागतं समनुष्ठितम्, यत्र च आदिवासी लोकनृत्यैः ढोल इत्याख्य वाद्ययन्त्रैः च पारम्परिकरीत्या श्रीमोदिनः स्वागत सपर्या सम्पादिता। प्रधानमन्त्री नरेन्द्रमोदी भारतीय पुरुष हॉकी दलस्य अभिनन्दनं कृतवान् यत् भारतं हुलुनबुइर नगरे चीनदलं 1-0 इत्यांकान्तरालेन पराजितम्। एति वार्ताः।